Book 2
Nam
5
5
Đất nước và ngôn ngữ
Desh aur bhashaein
Desh aur bhashaein
John từ London đến
John London se aaya hai.
John London se aaya hai.
London ở bên Anh.
London Great Britain mein sthit hai.
London Great Britain mein sthit hai.
Anh ấy nói tiếng Anh.
Vah angrezi bolta hai.
Vah angrezi bolta hai.
Maria từ Madrid đến.
Maria Madrid se aayi hai.
Maria Madrid se aayi hai.
Madrid ở bên Tây Ban Nha.
Madrid Spain mein sthit hai.
Madrid Spain mein sthit hai.
Cô ấy nói tiếng Tây Ban Nha.
Vô Spainy bolti hai.
Vô Spainy bolti hai.
Peter và Marta từ Berlin đến.
Peter aur Martha Berlin se aaye hain.
Peter aur Martha Berlin se aaye hain.
Berlin ở bên Đức.
Berlin, Germany mein sthit hai.
Berlin, Germany mein sthit hai.
Hai bạn nói tiếng Đức à?
Kya tum dono German bol sakte ho?
Kya tum dono German bol sakte ho?
London là một thủ đô.
London एक राजधानी है.
London एक राजधानी है.
Madrid và Berlin cũng là thủ đô.
Madrid और Berlin भी राजधानियां हैं.
Madrid और Berlin भी राजधानियां हैं.
Các thủ đô vừa lớn vừa ồn.
राजधानियां बड़ी और शोर से भरी होती हैं.
राजधानियां बड़ी और शोर से भरी होती हैं.
Nước Pháp ở châu Âu.
फ्रांस यूरोप में स्थित है.
फ्रांस यूरोप में स्थित है.
Nước Ai Cập ở châu Phi.
मिस्र अफ्रीका में स्थित है.
मिस्र अफ्रीका में स्थित है.
Nước Nhật Bản ở châu Á.
जापान एशिया में स्थित है.
जापान एशिया में स्थित है.
कनाडा ở Bắc Mỹ.
कनाडा उत्तरी अमेरिका में स्थित है.
कनाडा उत्तरी अमेरिका में स्थित है.
पनामा ở Trung Mỹ.
पनामा मध्य अमेरिका में स्थित है.
पनामा मध्य अमेरिका में स्थित है.
ब्राजील ở Nam Mỹ.
ब्राजील दक्षिण अमेरिका में स्थित है.
ब्राजील दक्षिण अमेरिका में स्थित है.
Hãy vào trang này, bạn sẽ tìm thấy quyển sách và những bài đọc kèm theo. Tôi nhắc lại www.book2.ge